अबोध्यग्निः समिधा जनानाम् प्रतिधेनुमिवाजते मुशासम् यह्वा इव प्रभया मुज्जिहानाः प्रभानवस्य स्रतेनागमच्छ अबोधिहोता जजथा जदेवानोर्ध्वो अग्निः सुमनाः प्रातरस्थात् समिद्धस्य ऋषददर्शिपाजो महान् देवस्तमसो निरमोचे यदीङ्गणस्य रशनामजे गश्युचिरङ् ते शुचिभिर्गोभिरग्निः आद्दक्षिणाजुज्यते वा जयन्त्युत्तानामोर्ध्वो अधयज्जुहोभिः अग्निमच्छा देवयताम् मनांसि चक्षोंषि वसोर्ये सञ्चरन्ति यदीम् सुवाते उषसा विरोपेश्वेतो वाजीजायते अग्रे अह्ना जनिष्ठ हि जेन्यो अग्रे अह्ना हितो हितेष्वरुषो वनेषो दमे दमे सप्तरत्ना दधानोऽग्निरहोता निषसादाजीजान अग्निरहोतान्यसि दद्यजीजानुपस्थे मातुः सुरभा उलोके युवा कविः पुरुनिष्ठरता वा धर्ता कृष्टीनामुत मध्य इद्धः प्रणोत्यम् विप्रमध्वरेषु साधुमग्निम् होता रमीळते नमोभिः आजस्तता न रोदसीरतेन नित्यम् रजन्ति वाजिनम् घृतेन मार्जाल्यो मृज्यते स्वेदमो नाः कविप्रशस्तो अतिथिः शिवो नाः सहस्रशृङ्गो वृषभस्तदो जाविश्वाग्ने सहसा प्रास्यन्यान् प्रसद्यो अग्ने अत्येष्यन्यानाविरजस्मै चारुतमो बभूथ ईळेऽन्यो वपुष्यो विभावा प्रियो विषामतिधर्मानुषीणाम् तुभ्यम् भरन्ति क्षितयो जविष्ठपरिमग्ने अन्तित ओत दूरात् आभन्तिष्ठस्य सुमतिम् चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् आद्यरथम् भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् विद्वान्पथेनामुर्वा अन्तरिक्षमेह देवान्हविरद्याजवक्षे अवोचामकवजे मेध्याजवचो बन्दारुवृषभाजवृष्णे गमिष्ठिरो नमसा स्तोममग्नौ दिवे एव रुक्ममरुव्यञ्चमश्रेत